सविता पश्चात्तात् सविता पुरस्तात् सवितोत्तरात्तात् सविता धरात्तात् सविता नः सुवतु सर्वदा सविता नो दीर्घमायुः शतं जीव शरदो वर्धमानः शतं हे मन्दान् शतमुपसन्तान् दक्षिणावतामि दिमानि चित्रा दक्षिणावतान् दिवि सूर्याशः दक्षिणावन्तो
अथ चतुर्वेदोक्त आशीर्वचनम् देवदेवोत्तमदेवता सार्वभौमा अखिलाण्डकोटि ब्रह्माण्डनायक विश्वकन्द्य सच्चिदानन्दात्मन् ऋग्वेदप्रिय ऋग्वेदसेवाम् अवधारय
अपामर्थ्यतीनां ब्रह्मा भवति सारथिः वाजे वाजे भगवादिनोधने सुभित्रा अमृतारितज्ञाः शतं जीव शरदो वर्धमानः शतं देवे मन्तान् शतमुपसन्तान् दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्तप्रतिरन्तरायुः शतं यथेमं शरदो नयामि विश्वस्य दुरितस्य पारम्
चतुर्वेदोक्त आसीर वचनं देवदेवोत्तम देवता सार्वभौम अखिलांड कोटि। ऋग्वेद प्रिया ऋग्वेद सेवाम अवधारय।
मामते यो जुजुर्वान्दसमे युगे अपामर्थ्यतीयां ब्रह्मा भवति सारथिः। सहस्राक्षेण शतशारदेन सतायुषा भविषाहार्षमेनम् शतं यथेमं शरधूनयातिन्द्रो विश्वस्य दुरितस्य पारम्।
योगस्थः कुरु कर्माणि। योगस्थः कुरु कर्माणि।
अखिलांडकोटि ब्रह्मांडनायक ऋषिगणवंद्य सच्चिदानंदात्मन् ऋग्वेद प्रिय ऋग्वेद सेवाम अवधारय।
जुजुर्वान्दसमे युगे अपामर्थ्यतीयां ब्रह्मा भवति सारथिः। अस्य मद्भविवतमादयध्वं तृप्तायाः गपतिभिर्ते भयानि। सविता पश्चात्तात् सविता पुरस्तात् सवितोत्तरात्तात् सविता भरात्तात् शतं दीर्घशरदोगमानः शतं हेमन्तान् शतमुवसन्तान् शतमिन्द्राग्ने सविता बृहस्पतिं सतायुषा हविषेमं पुनत्तुः दक्षिणावतामिदिमानि चित्रा दक्षिणावतान्दिभिः सूर्याकाशः सहस्राक्षेण शतशा आरदेन सतायुषा हविषा आश्रमेण शतञ्जथेमं शरदोनयातिन्द्रो विश्वस्य दुरितस्य पारम्
योगस्थः कुरु कर्माणि।